अथ चतुर्थः पादः आकडारादेका संज्ञा विप्रतिषेधे परं कार्यं यूस्त्र्याख्यौ नदी नेयं वं स्थानावस्त्री वामी नितिह्रस्वश्च शेषोघ्यसखि पतिः समास एव षष्ठीयुक्तश्छन्दसि वा ह्रस्वं लघु संयोगे गुरु दीर्घञ्च यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गं सुप्तिङन्तं पदं नह्ये सिति च स्वादिष्वसर्वनामस्थाने यचिभं तसौ मत्वर्थे अयस्मयादीनिच्छन्दसि बहुषु बहुवचनं द्व्येकयोर्द्विवचनैकवचने कारके ध्रुवमपाये पादानं भीत्रार्थानां भयहेतुः पराजेरसोढः वारणार्थानामीप्सितः अन्तर्धौ येनादर्शनमिच्छति आख्यातोपयोगे जनिकर्तुः प्रकृतिः भुवः प्रभवः कर्मणायमभिप्रैति ससम्प्रदानं रुच्यर्थानां प्रीयमाणः श्लाघंस्थाशपां ज्ञीप्स्यमानः धारेरुत्तमर्णः स्पृहेरीप्सितः क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रतिकोपः क्रुधद्रुहोरुपसृष्टयोः कर्मा राधीक्ष्योर्यस्य विप्रश्नः प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता अनुप्रतिगृणश्च साधकतमं करणं दिवः कर्म च परिक्रयणे सम्प्रदानमन्यतरस्याम् आधारोऽधिकरणम् अधिशीङ्स्थासां कर्म अभिनिविशश्च उपान्वध्याङ्वसः कर्तुरीप्सिततमं कर्म तथा युक्तं चानीप्सितम् अकथितञ्च गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ हृक्रोरन्यतरस्यां स्वतन्त्रः कर्ता तत्प्रयोजको हेतुश्च प्राग्रीश्वरान्निपाताः चादयो सत्त्वे प्रादयः उपसर्गाः क्रियायोगे गतिश्च ऊर्यादिच्विडाचश्च अनुकरणं चानिति परम् आदरानादरयोः सदसति भूषणेलम् अन्तरपरिग्रहे कणे मनसि श्रद्धाप्रतीघाते पुरोव्ययम् अस्तञ्च अच्छगत्यर्थवदेशो अदोनुपदेशे तिरोऽन्तर्धौ विभाषाकृञि उपाजेन्वाजे साक्षात्प्रभृतीनि च अनत्याधान उरसि मनसि मध्ये पदे निवचने च नित्यं हस्ते पाणावुपयमने प्राध्वं बन्धने जीविकोपनिषदावौपम्ये ते प्राग्धातोः छन्दसि परेऽपि व्यवहिताश्च कर्मप्रवचनीयाः अनुर्लक्षणे तृतीयार्थे हीने उपोधिके च अपपरीवर्जने आङ्मर्यादावचने लक्षणेत्थं भूताख्यानभागवीप्सासु प्रतिपर्यनवः अभिरभागे प्रतिप्रतिनिधिप्रतिदानयोः अधिपरी अनर्थकौ सुःपूजायाम् अतिरतिक्रमणे च अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु अधिरीश्वरे विभाषाकृञि लः परस्मै पदं तङानावात्मने पदं तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः తాన్యేకవచన ద్వివచన బహువచనాన్యేకశః సుపః విభక్తిశ్చ యుష్మద్యుపపదే సమానాధికరణే స్థానిన్యపి మధ్యమః ప్రహాసే చ మన్యోపపదే మన్యతే ఉత్తమ ఏకవచ్చ అస్మద్యుత్తమః శేషే ప్రథమః పరస్సన్నికర్షసంహిత విరామోవసానం ఆకడారాద్ బహుష్వను ప్రతిగణ ఊర్యాదిచ్ఛందసి తిగో దశ ఇతి చతుర్థ పాదః ఇతి ప్రథమోధ్యాయః.